लोकनाह जगन्नाथो लोकनाथो नीलाद्रीशः परोहरिः दीनबन्धुर्दया सिन्धु कृपाणुः जनरक्षकः
कम्बुपाणिः चक्रपाणिः पद्मनाभो नरोत्तमः जगतां पालको व्यापि सर्वव्यापि सुरेश्वरः लोकराजो देवराजः शक्रभूपश्च भूपतिः नीलाद्रिपादिनाथश्च अनन्तः पुरुषोत्तमः
तार्क्ष्योऽध्यायः कल्पतरुः विमाला प्रीतिवर्धनाः बलभद्रो वासुदेवो माधवो मधुसूदनः दैत्यरिः पुण्डरीकाक्षो वनमाली बलप्रियाः ब्रह्म विष्णु वृष्णिवंशो मुरारिः कृष्णकेशवाः पालश्च शूरः संसारपालकः एकोनेको मम प्रियो ब्रह्मवादी महेश्वरः द्विभुजश्च चतुर्बाहुः शतबाहुः सहस्रकाः पद्मपत्र विशालाक्षः पद्मगर्भ परोहरी सर्वदेवा प्रियंकराः विश्वव्यापी दारुरूपश्चन्द्र सूर्य विलोचनाः गुप्तगन्धोपलब्धिश्च तुलसी प्रीतिवर्धनाः जगदीशः श्रीनिवासः श्रीपतिः श्रीगदाग्रजाः पद्मपाणि रमूर्तिर्जगदाश्रयाः पद्मनाभो निराकारः निर्लिप्तः पुरुषोत्तमः कृपाकारः जगद्व्यापि श्रीकारः शङ्खशोभितः समुद्रकोटिगम्भीरो देवता प्रीतिदः सदा पाणिः सर्वजीवः सर्वसंसार रक्षकः देवकर्ता ब्रह्मकर्ता वशिष्ठो ब्रह्मपालकः जगत्पतिः सुराचार्यो जगद्व्यापी जितेन्द्रियाः समागमचारी च कृष्णगम्य स्वयंजसा नारायणो नराणां च लोकानां प्रभुरुत्तमः जीवानां परमात्मा च जगद्वंद्यः परोजमः भूतवासी परोक्षश्च सर्ववासी चराश्रयः पुरोतमाः साम प्रीतिश्च ऋक् प्रीतिर्जजुषोऽर्थर्वण प्रियाः श्यामचन्द्रः चतुर्मूर्तिश्चतुर्बाहुश्चतुर्गतिः
Thank you.
देवकी पुत्रो मुरारिर्वेणु हस्तकाः जगत् स्थायी जगत् व्यापी सर्व संसार भूतिदाः। ते लोके तत्सर्वं